एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। कार्यवाहक प्रमुख निर्वाचन आयुक्तः रामप्रसाद भण्डारी भाषते निर्वाचनस्य कृते सम्पूर्णम् पूर्वकार्यम् जायमानमस्तीत्यतः प्रतिनिधिसभा सदस्यानाम् निर्वाचनम् भवति न वेति विषये विवदनम् निरर्थकम् वर्तते। आगामिना फाल्गुन मासस्य एकविंशे दिवसे निर्धारितस्य प्रतिनिधिसभा सदस्यानाम् निर्वाचनस्य कृते समानुपातिक प्रणाल्याः गोप्यसूच्याः प्रस्तुतेर्विषये राजनीतिक दलानाम् कृते निर्वाचनायोगेन आयोजितस्य द्विदिवसात्मकस्य अभिमुखीकरणस्य कार्यक्रमस्य समापन सत्रम् ह्यः सम्बोधयन् कार्यवाहक प्रमुख निर्वाचन आयुक्तः भण्डारी वर्तमानावस्थायाम् निर्वाचनस्य विकल्पो नास्ति इति समस्पष्टयत्। असौ निर्वाचनस्य राजनीतिक विषयः राजनीतिकरूपेणैव समाधास्यते, विधिसम्मताः विषयाः स्वीकरिष्यन्ते चेति अगदत्। कार्यवाहक प्रमुख निर्वाचन आयुक्तः भण्डारी निषेधस्य राजनीतिम् विहाय स्वच्छतया स्वतन्त्रतया निष्पक्षतया भयरहितरूपेण च निर्वाचनस्य प्रचारस्य प्रसारस्य च वातावरणम् स्रष्टुम् सर्वाणि राजनीतिक दलानि तदवसरे अन्वरुणत्। गृहमन्त्री ओम प्रकाश आर्यालः निगदति सर्वकारस्य मुख्य कार्यभारः आगामिन फाल्गुन मासस्य एकविंशे दिवसे प्रतिनिधिसभाया सदस्यानाम् निर्वाचनस्य सम्पादनम् अस्ति। गृहमन्त्रालयेन कर्णाली प्रदेश सर्वकारस्य मुख्यमन्त्री मन्त्रिपरिषद कार्यालयेन च सुर्खेत जनपदस्य वीरेन्द्रनगरे आयोजितायाम् सुरक्षागोष्ठ्याम् ह्य गृहमन्त्री अर्यालः समृद्धेः अधिगमनाय विकासाय सुशासनाय च जेएनजी युववर्गाः राजनीतेः मूलाधारे आनेयाः इति धारणाम् व्यक्तवान्। तदवसरे कर्णाली प्रदेश सर्वकारस्य मुख्यमन्त्री यामलाल कणेलः प्रदेश सर्वकारः शान्ति सुरक्षाम् संस्थाप्य सुशासनस्य स्थापनाय केन्द्रितोऽस्तीति प्रावोचत्। सर्वोच्च न्यायालयेन प्रतिनिधिसभायाः पुनस्थापनायाः याचनाम् विधाय पंजीकृतानाम् पूरक निवेदनानाम् युगपद श्रवणम् विधास्यते। प्रधान न्यायाधीशस्य प्रकाश मानसिंह राउत इत्यस्य सर्वोच्च न्यायालयस्य वरिष्ठ न्यायाधीशस्य सपना प्रधान मल्ल इत्यस्याः न्यायाधीशानाम् हरिप्रसाद फुयालस्य मनोज कुमार शर्मणः नहकुल सुवेदिनश्च सांवैधानिक न्यायपीठेन ह्य नेपाली कांग्रेस दलस्य निवर्तमानैः अष्टाभिः सांसदैः पंजीकृतानि पूरक याचिका निवेदनानि एकत्र संस्थाप्य समेषाम् निवेदनानाम् युगपत् श्रवणम् विधातुम् आदिष्टमस्ति। विघटित सांसदः कांग्रेस दलस्य प्रमुख सचेतक पदीयेन श्यामकुमार घिमिरे विधेन सचेतक पदीयेन सुशीला थिङ्गी इत्यनया च सहितैः अष्टाभिः पूर्व सांसदैः पूर्व प्रदत्त निवेदनैः सह स्वस्य निवेदनम् समावेशयितुम् अभियाचितम् आसीत्। संसदः पुनस्थापनायाः याचनाम् विधाय एतत्पूर्वम् पंजीकृतेष् सप्तदश निवेदनेष् राष्ट्रपतेः कार्यालयात् प्रधानमन्त्री कार्यालयात् सभामुख सकाशात् च प्रत्युत्तरम् प्राप्तमस्ति। सर्वकारस्य उच्चस्तरीय राजनीतिक संवाद समितेः समूहेन राष्ट्रपादलेन सह विमृष्टम् वर्तते। समित्या ह्य राष्ट्रपादलस्य वनस्थलीवर्तिनम् केन्द्रीय कार्यालयम् प्राप्य विमृष्टम् वर्तते। विधिमन्त्री अनिल कुमार सिम्हा आगामिन फाल्गुन मासस्य एकविंशे दिवसे निर्वाचनस्य सम्पादनाय सर्वकारेण विधीयमानानाम् पूर्वकार्याणाम् विषये राष्ट्रपादलम् विज्ञापितमस्ति इति असूचयत्। संचार सूचना प्रविधि मन्त्री जगदीश खरेल राष्ट्रपादलेन निर्वाचने सहभागितायै स्पष्ट सन्देश प्रदत्तोऽस्ति, तदर्थं सर्वकारस्य पक्षत धन्यवाद प्रदत्तश्च वर्तते इति अवोचत्। विमर्शनस्य पश्चात् राष्ट्रपादलस्य प्रवक्ता मनीष झा समित्या सह विहितं विमर्शनम् उत्साहजनकम् सम्भूतमस्ति इति प्रतिक्रियाम् प्रादात्। ऊर्जो जलस्रोत सेचन भौतिक पूर्वाधार यातायात नगरीय विकास मन्त्री कुलमान घिसिङ विकास आयोजनानाम् बन्धकीकरणस्य प्रवृत्तेः विरूद्धे सर्वकार कठोरेण अग्रे वर्धमानोस्तीति उक्तवान् वर्तते। मन्त्री घिसिङ मन्त्रालयस्य पक्षतः शतदिनानाम् अवधौ विहितानि शतम् कार्याणि सार्वजनिक कुर्वन् विलम्बनस्य दायित्वात् पलायनस्य च प्रवृत्त्या सह कथम् विदापि संविधा न क्रियते इति समस्पष्टयत्। मन्त्री घिसिङ वर्षेभ्यः सहायावस्थायां स्थितानाम् आसन्न सप्तदशानाम् अब्जानाम् रूप्यकाणाम् षट्षष्टे ऋणानुबन्धनानाम् संविधान निरस्तीकृता स्थिति संसूचयन् प्राचीन निर्माणानुबन्धन संविधान निरस्तीकृत्य नूतन प्रक्रियातः आयोजनाभ्य गति प्रदीयते इति समस्पष्टयत। नेपाली कांग्रेस केन्द्रीय कार्य सम्पादन समितेः उपवेश सानेपा वर्तिनी केन्द्रीय कार्यालय पूर्वेदी उपविष्टोस्ति। कार्यवाहक सभापतेः पूर्णबहादुर खड्का विदस्य सभापतित्वे उपविष्टे उपवेशे दलस्य महाधिवेशनस्य निर्वाचनस्य च विषयेषु विमृष्टमस्तीति नेपाली कांग्रेस दलेन ज्ञापितं वर्तते। ह्यस्तनोपवेशे महामन्त्री गगन कुमार थापा, सहमहामन्त्रिण महेन्द्र यादव, बद्री पाण्डे, केन्द्रीय सदस्य विजय कुमार गच्छदार, कृष्ण प्रसाद सिटौला, डाक्टर शेखर कोइराला, ज्ञानेन्द्र बहादुर कार्की च धारणाम उपस्थापयन्। कार्य सम्पादन समिति उपवेश अद्य दिवा एकवादने पुनः उपविशतीति दल कार्यालयस्य मुख्य सचिव कृष्ण प्रसाद पौडेल असूचयत। ईसाई धर्म प्रवर्तकस्य येशु ख्रीष्ट इत्यस्य जन्मोत्सवस्य उपलक्ष्ये नेपाल देशीयेन ईसाई समुदायेन अद्य क्रिसमस पर्व सोल्लासम् समायोज्यमानम् अस्ति। ग्रेगोरियन पञ्चाङ्गस्य अनुसारेण दिवसोऽयं प्रतिवर्षं डिसेम्बर मासस्य पञ्चविंशे दिवसे विश्वस्य ख्रीष्ट धर्मावलम्बिभिः समायोज्यते। ईसाई धर्म प्रवर्तकस्य येशु ख्रीष्ट इत्यस्य जन्म पञ्चविंशत्युत्तर द्विसहस्र वर्षेभ्य पूर्वं डिसेम्बर मासस्य पञ्चविंश दिवसे इजरायल देशस्य बेथलेहम स्थाने बभूव इति मान्यतायाः आधारेण प्रतिवर्षम् अस्मिन्नेव दिने आविश्वम् ईसाई धर्मावलम्बिभिर्जनै भव्यरूपेण क्रिसमस पर्व समाद्रियते। नेपालेपि देशस्य बहुषु भागेषु एतत् समुदायस्य जनै बहवः कार्यक्रमाः समायोजिताः सन्ति। एतस्मिन् अवसरे राष्ट्रपतिना रामचन्द्र पौडेलेन प्रदत्ते शुभकामना सन्देशे ईसाई समुदायस्य सुख शान्ति दीर्घायुष्याणां कामना विहिता अस्ति। तथैव अस्य पर्वण अवसरे उपराष्ट्रपतिना रामसाय प्रसाद यादवेन प्रधानमन्त्रिणा सुशीला कार्किणा च ईसाई समुदायस्य जनेभ्य शुभकामना प्रदत्तास्ति। निर्वाचनायोगेन निर्धारितं दण्डनवित्तं न अर्पितम् इत्यतः सर्णां राजनीतिकदलानां पञ्जीकरणं निरस्तीकृतं वर्तते। आयोगेन राजनीतिकदल सम्बद्धाधिनियमस्य अनुसारेण दण्डनवित्तम् अनर्पितवताम् आम आदमी पार्टी नेपाल, नेपाल कम्युनिष्ट पार्टी लोकतान्त्रिक, नेपाल राष्ट्रवादी पार्टी, आधुनिक नेपाल समाजवादी पार्टी, नेपाल कम्युनिष्ट पार्टी गौरवशाली, माओवादी, जनमुक्ति पार्टी इत्येतेषाम् दलानाम् दल पञ्जीकरणम् निरस्तीकृतम् वर्तते। त्रिभुवन विश्वविद्यालयस्य एकपञ्चाशत्तम दीक्षान्त समारोह अद्य जायमानोऽस्ति। विश्वविद्यालयस्य इतिहासे प्रथमवारं नोबेल पुरस्कार प्राप्तवन्तं जापान देशीयं प्राध्यापकं ताका आकी काजिता इत्यमुं प्रमुखातिथिरूपेण आहूय दीक्षान्त समारोह समायोज्यमानोऽस्तीति विश्वविद्यालयस्य उपकुलपतिः प्राध्यापक डाक्टर दीपक अरियालः असूचयत।